आजात्मिन्द्रस्वपधर्मदायजो धर्मानातु जानस्तु विश्वान् प्रत्वक्षाणो अतिविश्वासहांस्य पारेण महता वृष्ण्येन सृष्ट्वा भारतस्य यमाहरी देवीम् यक्षवज्रो नृपते गभस्तौ सीभम् राजन् सुपताया ह्यर्वामधामते पुरुषो वृष्ण्यानि येन्द्रवाहो नृपतिम् वज्रबाहुमुग्रमुग्रादस्तविषासयेनम् सरत्वक्षसम् ऋषभम् सत्यसूक्ष्ममेव स्पत्रासधमादोऽवहन्तु एवामतिम् रोनसा चंसते रसमूर्जस्कम्भम् धरुण आवीषायसे ओजः कृष्णसङ्ग्रेभायत्वे अप्यसो यथा के निपाना विनो वृधे गमन्नस्मेव शून्याहि संशेषम् स्वाशिषम् फलमायाहि सोऽभिनाः त्वमेधिभेदास्मिन्नासत्सि बलिभिश्च नाधिष्याथव पात्राणि धर्माणा सक्रायम् प्रसमादेवभूतयो बृन्वकस्वपस्यानि दुष्कराः देवर्यज्ञिजाम् नाम मारुहवीर्मैवतेऽन्यानि समुद्रकेपयः एवैवा पाकपरे सन्दुर्यो स्वायेषाम् दुर्युज आयुयुद्रे इच्छाये प्रागुपरे सन्ति रावणे पुरूणि यत्र वयुनाः निभोजना गिरीङ्ग्रज्वाङ्गेयमानाम् अधारयद्यौक्रम् तदन्तरिक्षाणि कोपयत् समीचीने धिषणे विष्कभायति वृष्णव्येत्वा मदभुक्तानि संसति इमम् विभर्मि सुकृतम् ते अङ्कुशम् येनाजासीमघवम् छपारुजाः अस्मिन् सुदे समाने अस्तोक्यम् सुरजिष्टो माघवम् बोध्याभगः गोभिष्टरे मामादिम् दुरे वाम् जवे नक्षुधम् पुरुहोत विस्वाम् अयम् राजाभिप्रथमाधनान्यस्माकेन वृजनेनाजयेम बृहस्पतिम् नः परीपातु पश्चादुतोत्तरस्मादधराधघायोः इन्द्रः पुरस्तादुतमध्यतो नः सखा सखिभ्यो परीवः कृणोतु